Purusha-sukta is a great hymn of creation. It also signifies the cosmic sacrifice. The uniqueness of this particular sukta is, it is found in all the four Vedas. It's in the Rig Veda, Yajurveda, Shukla Yajurveda, Samaveda, and even in some portions of the Aranyakas also. Thus, this itself is a great testimony of the significance of Purusha-sukta. Purusha-sukta is the creation hymn and also the hymn of sacrifice as we have understood. However, it also panegyrically glorifies the greatness of Narayana, the Parama Purusha. Purusha literally means Puri Shete Iti Purushaha, he who is dwelling in our body, the very soul, the very Atman itself. And in the other way, Purusha Sukta is the song of the Atman, that is the song celestial. And in this particular Sukta, we have the invocation of Vishnu, who is all-pervading, omnipresent and omnipotent. And by sacrificing his own self, the Lord has created this world. Hence, the world is his embodiment and he is one with the world. Or else, the world itself is the Lord. So, we have to respect this world. In this way, Purusha Sukta has told us about the Jagat Jiveshwara Yoga. It means the Lord, the individual soul and the universe. Thus, this Trinity has to be always lodged securely in our mind and we have to meditate on this aspect.
Om Sahasrashirsha Purushaha Sahasraksha Sahasrapat Sabhumim Vishpato Vratva Atyatishthad Dashangulam Purusha Evedagum Sarvam Yad Bhutan Yaccha Bhavyam Utamritatvasyeshanaha Yadannena Tirohati Etavanasya mahiva atojjaya grishya purushaka pado osya vishva bhutani tripadasya amritan divi tripadurdva udai purushaka pado osya bhavat punaha tato vishvam vyakramat sashananashane abhi Tasmaat virata jayata virajo adhipurushaka sajato atyarichyata paschad bhumimatho puraka yat purushena havisha deva yajnyamatanvata vasanto atyasidajyam grishma idhma sharadhavihi Saptasyasam paridhayaka Trisapta samidha krutaha Devayadyajnantan vadaha Avadhnam purusham pashum Tainyajnam varvishiprokshan Purusham jatavagrataka Tena deva ayajanta Sadhyarshayaschaye Tasma adyajnat sarubahutaka Samhritam prishadajyam Pashudhistagishchakreva yabhyanu Aranyan gramyaschaye Tasma adyajnat sarubhagutaka Richasamani jajnire Chandagunsi jajnire Tasma atu yajustasma dajajata Tasmadashva ajayanta Yekecho bhayadataha Gavoha jajnire tasmaat Tasmaat jata ajabajaha Yat purusham vyadadhuhu Vatidhavya galpayan Mukhankimasya kauvahu Kavurupada bucchete ब्राह्मणो अस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाघमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशश्च तस्रः तमेवम् विद्वादमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजाघमग्रे वेदाघमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वादमृत इह भवति नान्यः पन्था विद्यते यदाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे व्रीश्चते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा ॐ तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्तिः शान्तिः शान्तिः।